ओम नमो भगवते वासुदेवाय। अथ पञ्चमोऽध्यायः। श्रीशुक उवाच। राजन्नुदितमेतत्ते हरे कर्मा घनाशनं गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु। पञ्चमो रैवतो नाम मनुस्तामसोदरः बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः। विपुरिन्द्रः सुरगणा राजन्भूतरयादयः हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः। पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठयी सुरसत्तमैः। तयोः स्वकलया यज्ञे वैकुण्ठो भगवान् स्वयम्। वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया। तस्यानुभाव कथितो गुणाश्च परमोदयाः। भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान्। षष्ठस्य चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः। पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः। इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः। मुनयस्तत्र वैराजन् हविस्मद्वीरकादयः। तत्रापि देव सम्भूत्यां वैराजस्याभवत्सुतः। अजितो नाम भगवानंशेन जगतपतिः। पयोधिं येन निर्मथ्य सुराणां साधिता सुधा। भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः। राजोवाच। यथा भगवता ब्रह्मन्मथितः क्षीरसागरः। यदर्थं वा यतश्चाद्रिं तथाराम्बुचरात्मना। यथा मृतं सुरैः प्राप्तं किञ्चान्यदभवत्ततः। एतद्भगवतः कर्म वदस्व परमाद्भुतम्। त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः। नातितृप्यति मे चित्तं सुचिरं तापतापितम्। सूत उवाच। सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः। अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रदक्रमे। श्रीशुक उवाच। यदा युद्धे सुरैर्देवा बाध्यमानाशितायुधैः। गतासवो निपतिता नोत्तिष्ठेरन् स्म भूयशः। यदा दुर्वासः शापात् सेन्द्रा लोकास्त्रयो नृप। निःश्रीकाश्चाभवंस्तत्र नेषुरिज्यादयः क्रियाः। निशाम्यैतत्सुरगणा महेन्द्रवरुणादयः। नाद्य गच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम्। ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः। सर्वं विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने। स विलोक्येन्द्रवायुवादीन् निःसत्त्वान् विगतप्रभान्। लोकानमङ्गलप्राया न सुरा न यथा विभुः। समाहितेन मनसा संस्मरन् पुरुषं परम्। उवाचोत्फुल्लवदनो देवान् स भगवान् परः। अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः। यस्यावतारांशकला विसर्जिता व्रजाम सर्वे शरणं तमव्ययम्। न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः। अथापि सर्गस्थितिसंयमार्थं धत्ते रजः सत्त्वतमांसि काले। अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम्। तस्माद्व्रजाम शरणं जगद्गुरुं स्वानां सनोधास्यति शंसुरप्रियः। श्रीशुक उवाच। इत्याभास्य सुरान् वेथा सहदेवैररिन्दम। अजितस्य पदं साक्षात् जगामतमसः परम्। तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो स्तुतिमब्रूतदैवीभिर्गीर्भिस्त्ववहितेन्द्रियः। ब्रह्मोवाच। अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यं मनोग्रयानं वचसा निरुक्तं नमामहे देववरं वरेण्यम्। विपश्चितं प्राणमनोधियात्मनामर्थेन्द्रियाभासमनिद्रमव्रणम्। छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे। अजस्य चक्रं त्वदयेर्यमाणं मनोमयं पञ्चदशारमासु। त्रिणाभिविद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये। य एकवर्णं तमसः परं तदलोकमव्यक्तमनन्तपारम्। आसाञ्चकारोपसुपर्णमेन मुपासते योगरथेन धीराः। न यस्य कश्चातितितर्तिमायां यया जनो मुह्यति वेदनार्थम्। तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम्। इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः। गतिं न सूक्ष्मामृषयस्य विद्महे कुतो सुराद्या इतरप्रधानाः। पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः। स वै महापुरुषात्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः। अम्भस्तु यद्रेत उदारवीर्यं सिद्ध्यन्ति जीवन्त्युत वर्धमानाः। लोकाश्रयोथा किल लोकपालाः प्रसीदतां ब्रह्म महाविभूतिः। सोमं मनो यस्य समामनन्ति दिवौकसां वै बलमन्ध आयुः। ईशोनगानां प्रजनप्रजानां प्रसीदतां नः स महाविभूतिः। अग्निर्मुखम् यस्य तु जातवेदा जातः क्रियाकाण्ड निमित्त जन्मा अन्तः समुद्रे नुपतन् स्वधातून् प्रसीदताम् नः स महाविभूतिः यच्चक्षुरासीत् तरणिर्देवयानम् त्रयीमयो ब्रह्मण एष धिष्ण्यम् द्वारम् च मुक्तेरमृतम् च मृत्युः प्रसीदताम् नः स महाविभूतिः प्राणादभूत् यस्य चराचराणाम् प्राणः सहो बलमोजश्च वायुः अन्वास्म सम्राजमिवानुगावयम् प्रसीदताम् नः स महाविभूतिः श्रोत्राद्यशो यस्य हृदस्य खानि प्रजज्ञिरेखम् पुरुषस्य नाभ्याः प्राणेन्द्रियात्मा सुशरीरकेतम् प्रसीदताम् नः स महाविभूतिः बलान्महेन्द्रस्य दशः प्रसादान् मन्योर्गिरीशो धिषणात् विरिञ्चः खेभ्यश्च छन्दान् सृषयो मे धृतः कः प्रसीदताम् नः स महाविभूतिः श्रीर्वक्षत पितरश्छायया सन् धर्मस्तनादितरः पृष्ठतोऽभूत् द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात् प्रसीदताम् नः स महाविभूतिः विप्रोमुखम् ब्रह्म च यस्य गुह्यम् राजन्यासीत् भुजयोर्बलम् च ऊर्वोर्विडोजोऽङ्घ्रिरवेदसूत्रौ प्रसीदताम् नः स महाविभूतिः लोभोधरात् प्रीतिरुपर्यभूद्युतिर्नस्तः पशव्यः स्पर्शेन कामः भ्रुवोर्यमपक्ष्मभवस्तु कालः प्रसीदताम् नः स महाविभूतिः द्रव्यम् वयः कर्मगुणान् विशेषम् यद्योगमायाविहितान् वदन्ति यद्दुर्विभाव्यम् प्रबुधापबाधम् प्रसीदताम् नः स महाविभूतिः नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय नभस्वदूतये सत्त्वम् नो दर्शयात्मानमस्मत्करणगोचरम् प्रपन्नानाम् दिदृक्षूणाम् सस्मितम् ते मुखाम्बुजम् तैस्तैः स्वेच्छादृतैरूपै काले काले स्वयम् विभो कर्म दुर्विषहम् यन्नो भगवान्स्तत्करोति हि क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा देहिनाम् विषयार्तानाम् न तथैवार्पितम् त्वयि नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः कल्पते पुरुषस्यैष स हि आत्मा दयितो हितः यथा हि स्कन्धशाखानाम् तरोर्मूलावसेचनम् एवमाराधनम् विष्णो सर्वेषामात्मनश्च हि नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे मृतमथने पञ्चमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।